एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति जलवायोः परिवर्तनस्य कारणेन तापक्रमस्य वृद्ध्या सहैव हिमालयेषु जायमानं प्रभावं न्यूनीकर्तुं सर्वहि क्षेत्रे प्रवर्तनीयम्। एकसप्ततितमस्य अन्तर्राष्ट्रिय सगरमाथा दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजितं कार्यक्रमं सम्बोधयन् प्रधानमन्त्री प्रचण्डः नेपाल सर्वकारेण अग्रेसारिताय हिमालयान् रक्षेम मानवतां सुरक्षेम चेति अभियानाय सहयोक्तुं हिमालयान् प्रदूषणरहितान् विधातुं च अनुरुणत्। प्रधानमन्त्री प्रचण्डः अगदत् वातावरणीय संकटस्य समाहोयाः गभीरेण ग्राह्याः। सगरमाथा दिवसेन नेपाली पर्यटक वृद्धिः हिमालयानां संरक्षणं हिमालयीय क्षेत्रेषु विद्यमानानाम् अवकराणाम् उचित व्यवस्थापनं हिमालयीय क्षेत्रेषु जलवायुः परिवर्तनस्य कारणेन सृष्टं प्रभावं न्यूनीकर्तुम् अतिरिक्तं प्रेरणा भविष्यतीति च प्रधानमन्त्री प्रचण्डः विश्वासं व्यक्तवान्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते आगामिनः आर्थिक वर्षस्य आयव्ययकस्य क्रियान्वयनेन सहैव आर्थिक सुधारस्य कार्यक्रमः गतिशीलः भविष्यन्ति। ह्य सिन्धुपाल्चोक जनपदस्य चौतारा चिकित्सालयस्य अत्याधुनिक भवनस्य उद्घाटन कार्यक्रमे प्रधानमन्त्री प्रचण्डः उत्पादनस्य उत्पादकत्वस्य वृत्ति विकासस्य च प्रवर्धनाय आगामिनः आर्थिक वर्षस्य आयव्ययकं प्रस्तुतमस्तीति अभाषत। ह्य एव सिन्धुपाल्चोक जनपदस्य कार्यकर्तृभिः सह मेलने प्रधानमन्त्री प्रचण्डः देशः प्रतिगमनस्य संकटात् आत्मना उन्मोचितः अस्तीति अभाषत। वर्तमानं राजनीतिकं समीकरणं विघटयित् विभिन्नैः स्तरैः जायमानाः प्रयासाः आत्मना विफलीकृताः इति चर्चयन् प्रधानमन्त्री प्रचण्डः सर्वैः प्रतिपक्षिदलैस्सह सहकार्यं विधाय अग्रे वर्धिष्यते इत्यवोचत्। अर्थमन्त्री वर्षमान पुन राष्ट्रिय नवीनचरणस्य आर्थिक सुधारस्य प्रारभणत्वेन आगामिनः आर्थिक वर्षस्य आयव्ययक विवरणं प्रस्तुतं वर्तते इति निश्चिनोति। आगामिनः आर्थिक वर्षस्य आयव्ययकस्य विशेषतायाः विषयं ज्ञापयितुं ह्यः अर्थमन्त्रालये आयोजिते पत्रकारैः सह अन्तर्क्रिया कार्यक्रमे अर्थमन्त्री पुनः आगामिनः आर्थिक वर्षस्य आयव्ययकं मुख्यरूपेण उत्पादने उत्पादकत्ववृद्धौ वृत्त्युपार्जनानाम् अभिवर्धने च केन्द्रितमस्तीति उदैरयत्। अर्थमन्त्री पुनः आयव्ययक विवरणं लोकप्रियस्य अपेक्षयापि यथार्थे आधृतं वस्तुगतं विधातुं प्रयासः विहितोऽस्तीति अवदत्। अर्थमन्त्री पुनः आगामिनि आयव्ययके राष्ट्रस्य अर्थतन्त्रस्य महत्वपूर्ण क्षेत्रस्य रूपेण सूचना संचार प्रविधि क्षेत्रम् अग्रे वर्धयितुम् ईप्सितमस्तीति असूचयत्। अर्थमन्त्री पुनः मार्ग पूर्वाधार आर्थिकोन्नयनस्य पूर्व रूपेण विकस्यते देशस्य महत्वपूर्ण आर्थिक क्षेत्रस्य रूपेण विकसितानां पोखरा बुटवल भैरहवा स्थानानां चितवन जनपदस्य च आर्थिक त्रिकोणस्य रूपेण विकासस्य लक्ष्यम् आयव्ययकेन गृहीतमस्तीति प्रावोचत्। अर्थमन्त्री पुनः आयव्ययकेन राष्ट्रस्य विकासाय पूर्वाधार निर्माणाय च नैजक्षेत्रमपि सहैव अग्रे नीतमस्तीति अकथयत्। अर्थमन्त्री पुनः आयव्ययकेन कृष्याः उत्पादनं वर्धयितुं कृषि उत्पादन दशकस्य घोषणा विहितास्तीति असूचयत्। असौ आयव्ययकेन कृषिक्षेत्रम् उच्च प्राथमिकता प्राप्त क्षेत्रस्य रूपेण अग्रे वर्धितमस्तीति अवोधयत्। कार्यक्रमे नेपाल राष्ट्रकोषस्य अधिशासकः महाप्रसाद अधिकारी, अर्थसचिवः मधुकुमार मरासिनी, राजस्व सचिवः डाक्टर रामप्रसाद घिमिरे च पत्रकाराणां जिज्ञासानां समाहितवन्तः आसन्। गण्डकी प्रदेशस्य मुख्यमन्त्री सुरेन्द्र राज पाण्डे ह्य पद गोपनीयतयोः शपथं गृहीतवान् अस्ति। प्रदेश प्रमुखेण डिलीराज भट्टेन नेपालस्य संविधानस्य अनुसारेण प्रदेशसभायां विपुल दलस्य नेता सुरेन्द्र राज पाण्डे ह्य मुख्यमन्त्री पदे नियुक्तो वर्तते। गत सोमवासरे सर्वोच्च न्यायालयेन नेकपा एमाले दलस्य संसदीय दलस्य नेत्रा खगराज अधिकारिणा मुख्यमन्त्री पदाय लब्धं विश्वासस्य मतम् अवैधानिकम् अस्तीति निश्चित्य पाण्डे इत्यमुं मुख्यमन्त्री पदे नियोक्तुं परमादेशः प्रदत्तः आसीत्। मुख्यमन्त्री पाण्डे त्रिसदस्यात्मकं मन्त्रिमण्डलञ्च संघटितवान् अस्ति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भाषते सामाजिक न्यायस्य समानतायाश्च कृते अधिकोपलब्धिम अधिगन्तुम एमाले दलम अग्रे वर्धते। ह्यस्तनात् दिवसात् काष्ठमण्डपे प्रारब्धम एमाले दलस्य दुई दिवसात्मकम् महिला सम्मेलनम् सम्बोधयन् अध्यक्ष ओली राज्यस्य निकायेषु प्रतिशतम् त्रयत्रिंशत महिलानाम् स्थान निर्धारणस्य स्थितावेव सन्तोषस्य अवस्था नास्तीति अभाषत। पूर्व राष्ट्रपतिना विद्यादेवी भण्डारिणा उद्घाटिते सम्मेलने एमाले दलस्य त्रयोविंशतिः जनसंघटनानां महिला नेत्रेः दलेभ्य निर्वाचिताः महिला जनप्रतिनिधयः दलस्य प्रदेश समितिनां जनपद समितिनां च महिला पदाधिकारिणः अखिल नेपाल राष्ट्रिय स्वतन्त्र विद्यार्थी संघटनस्य महिला प्रतिनिधयश्च संहत्य आसन्न पञ्चदश सहस्राणां जनानां सहभागिता वर्तते इति ज्ञापितमस्ति। पशुपतिनाथस्य चत्वारि एव द्वाराणि आगामिनः आषाढ मासात् प्रातः चतुर्वादने एव उद्घाटयिष्यन्ते। पशुपतिनाथस्य दर्शनार्थिनां संख्यायाः वर्धमानात् सर्वे चतुर्भिरेव द्वारैः प्रातः चतुर्वादनात् दर्शनं कर्तुं शक्नुयुः इत्युद्देश्येन आषाढस्य प्रथमदिवसात् पशुपतिनाथस्य चत्वारि एव द्वाराणि उद्घाटयिष्यन्ते इति पशुपति क्षेत्र विकास कोषस्य प्रवक्ता रेवती रमण अधिकारी अज्ञापयत्। इतः पूर्वं महाशिवरात्रि पर्वण हरितालिकायाश्च अवसरे बाला चतुर्दशी दिवसे चैव पशुपतिनाथस्य चत्वारि द्वाराणि उद्घाट्यन्ते स्म। नेपाली सेनायाः अग्रेसरतायां सञ्चाल्यमानस्य स्वच्छ हिमालयाभियानस्य अन्तर्गतम् अधुनावधि सगरमाथा लोत्से नुप्से हिमालयेभ्य एकादश सहस्र किलोग्राम परिमितः अवकरः चत्वारि मानव शरीराणि कतिपयानि मानवास्थि पञ्जराणि च संकलितानि व्यवस्थितानि च सन्तीति सेनया ज्ञापितम् वर्तते। अभियाने सहभागिना समूहेन सगरमाथा हिमालयस्य बालकुनी क्षेत्रे लोत्से शिविर क्षेत्रे च विद्यमानं मानव शरीरद्वयं ह्य विमानस्य माध्यमेन त्रिभुवन विश्वविद्यालयस्य महाराजगंजवर्तिनं शिक्षण चिकित्सालयम् आनीय अतिरिक्त परीक्षणाय अर्पितमस्ति। आगामि त्रिषु दिवसेषु देशस्य पश्चिम तराई क्षेत्रस्य भूभागेषु अत्यधिकस्य घर्मणः सम्भावना अस्ति इति वातावरण पूर्वानुमान महाशाखया ज्ञापितमस्ति। महाशाखया घर्मणः प्रभावात् आत्मनः रक्ष्यार्थं सावधानताम् अवलम्बितुम् अनुरुणद्धि। सुदूरपश्चिम प्रदेशस्य लुम्बिनी प्रदेशस्य च तराई क्षेत्रस्य भूभागेषु दिनत्रयं यावत् उष्णवातलहर्याश्च सम्भावना अस्ति इति महाशाखया ज्ञापितमस्ति। मकवानपुरस्य भीमफेरी ग्रामपालिकाया षष्ठ वडा क्षेत्रस्य जुरीखेतस्थाने ह्य दुरापन्नायां कारयान दुर्घटनायां जनत्रयं मृतं जनद्वयं आहतञ्च वर्तन्ते। मकवानपुर जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः प्रवक्ता च लक्ष्मी भण्डारी भीमफेरी कुलेखानी काष्ठमण्डप मार्गखण्डे काष्ठमण्डपात् हेटौडा स्थानं प्रति प्रस्थितं कारयानम् अनियन्त्रितं सद् मार्गात् पञ्चाशदुत्तर शतद्वय मीटरमितम् अध निपतितम् आसीत् इति अज्ञापयत्। कारयाने आरूढेषु पञ्चसु जनेषु एकः घटनास्थले एव जनद्वयं हेटौडावर्तिनी मकवानपुर सहकारी चिकित्सालये उपचारस्य क्रमे च मृताः सन्ति इति प्रवक्ता भण्डारी असूचयत्।